प्रातरेजुजाभिबोधजाश्विनावेह गच्छताम् अस्य सोमस्य पीतये यासुरथा रथेतमो भादेवादिविस्पृशा अश्विनाताह वामहे यावाङ्कषमधुमत्यश्विना सूनृतावती तया जज्ञम् मिमिक्षतम् न हि वामस्ति दोरके यत्रा रथे न गच्छथः अश्विना सोमिनो गृहम् हिरण्यपाणिभूतये सवितारमुपह्वये स चेत्ता देवता पदम् अपान्नपातमवसे सवितारमुपस्तु हि तस्यौ रताञ्जुष्मसे विभक्तारम् हवामहे वसोश्चित्रस्य राधसः सवितारन् रचक्षसम् सखा जानिषे दत सवितास्तोम् योननाः दाता राधाम् शिशुम्भते अग्ने पत्नी रिहावह देवानामुषते रूप त्वष्टारम् सोमपीतये आग्ना अग्न इहावसे होत्रायविष्ठभारतीम् वरोत्रीम् धिषणाम् वः अभिनो देवीरवसा महशर्वणा नृपत्नीः अच्छिन्नपत्रा सचन्ताम् इहेन्द्राणीमुपह्वजे वरुणानीम् स्वस्तजे अग्नाजीम् सोमपीतजे महीद्योः पृथिवी च न इमै यज्ञम् मिमिक्षताम् विव्रतान्नो भरीमभिः तयोरिद्घृतमत्मजो विप्रारिहन्ति धीतिभिः गन्धर्वस्य ध्रुवे पदे स्यो न पृथिवि भवान् रक्षरा निवेशने यच्छा नः शर्म सप्रथाः अतो देवा अवन्तु नो यतो विष्णुरो विचक्रमे पृथिव्याः सप्तधामभिः इदम् विष्णुर्विचक्रमे त्रेधानि दधे पदम् समोह्लमस्य पाम् सुरे त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः अतो धर्माणि धारयन्न विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे इन्द्रस्य युज्यः सखा तद्विष्णोः परमम् पदम् सदा पश्यन्ति सूरयाः दिवे भचक्षुरारतम् तद्विप्रासो विपञ्जवो जागृवाम् सस्समिन्धते विष्णोर्यत्परमम् पदम्